परेतोषिञ्जदासदं सा भोज उत्तमम् हविः धन्वाङ्ग्यो नर्यो अप्सा अन्तरा सुषापसो मम द्रिभिः नूनम् मुरानो विभिः परिस्रवादब्धस्वरभिन्दरः सुतेजित्वाप्सुमदापो अन्धसा श्रीणन्तो गोभिरुत्तरम् परिसुबानश्चक्षसे देवमादनक्रतुरिन्दुर्विचक्षणः पुनानः सा मदारजापोऽवसा नो अर्षसि आरत्नधाजो निमृतस्य सेदस्युत्सो देवहिरण्यजाः दुहान ओधर्दिव्यम् मधप्रियम् रत्नम् सदस्थमासदत आपृच्छन् धरुणम् वाज्यर्षजनभिर्धोतो विचक्षणः पुनानः सा मजाग्रभिरव्यापारे परिप्रियः त्वम् विप्र अभवाङ्गिरस्तवामध्वा यज्ञम् मिमिक्षणः स्वमामेढ्वान्भवते गातुमित्तमनुशरविप्र विचक्षणः त्वम् कविरभवो देववेतम आसूर्यम् रोहयो दिवे सोम उषपाणः सोत्रभिरधिष्ठभिरवीनाम् अश्वदेव हरिता जातिधारजा मन्द्रजा जातिधारजा अनूपे गोमान्गोभिरक्षा सोमा दुग्धाभिरक्षाः समुद्रन्न सम्वरणाञ्जग्मन्मन्दे मदा यतोषते आसो वसुमानो अद्रिभिस्थिरो वाराण्यव्यजा जनो न पुरिचम्बोर्विषद्धरिः सदो वनेषु दधिषे समामृदे तिरो अण्वा निमेष्यो मेळ्हे सत्यर्णवा जयः हनुमाद्यः पवमानो मनीषभिः सोमो विप्रेभिररक्मभिः प्रसोमदेववेदजे सिन्धुर्नविप्ये अर्णसा अंशोः पयसामधिरो न जाग्रभिरच्छाकोशम् मधुश्चुतम् आहर्यतो अर्जुने अत्के अव्यतप्रियः सोऽनुर्नमर्ज्याः तमेम् हिन्वन्यपसो यथारथम् नदेष्वागभस्त्योः अभिसोमास आजवः पवन्ते मद्यम् मदम् समुद्रस्याधिविष्टपिपनेषिणो मत्सरासस्वरपिदाः तरत्समुद्रम् पवमान ओर्मिणा राजा देवरथम् रहत अरुषन् मित्रस्य वरुणस्य धर्मणा प्रहिन्वानरथम् रहत नृभिर्जे भानो हर्यतो विचक्षणो राजा देवः समुद्रियाः इन्द्राजपवते पदः सोमो मरुत्पदे सुतः सहस्रधारो अद्यव्यपरिषदि तमे मृजन्त्याजवाः पुनानश्च मो जनयन् पदिम् कपिः सोमो देवेषुरण्यते अपोपसा नः परिवोभिरुत्तरस्य दन्वनेष्वव्यत तवाहंसो मनारुणसख्य इन्दो दिवे दिवे पुरोणि बभ्रो निचरन्ति मामव परिधीङ्ग्रदितो इः उदाहन्नक्तमदसो मदे दिवा सख्या च बभ्र ऊधने घृणातपन्तमधिसौर्यम् परशगुना इव भक्तिमा मृज्यमानः स्वहस्त्य समुद्रे वाजमिन्वसे रजम् विषङ्गम् बहुलम् वरस्प्रहम् पवमानाभ्यर्षसे मृजानो वारे पवमानो अभ्यजे वृषापचक्रतो वने देवानाम् सामपवमाननिष्कृतम् गोभिरञ्जानो अर्षसे पवस्पवाजसादजेभि विश्वानि काव्या त्वम् समुद्रम् प्रथमोविधारजो देवेभ्यः सोममत्सरः सदोपवस्तपरिपार्थिवम् रजो दिव्याजसोपधर्मभिः त्वाम् विप्रा सोमतिभिर्विचक्षणशुभ्रम् हिन्वन्दिधीरिभिः पवमाना असृक्षद पवित्रपतिधारजा मरुत्वन्तामत्सरा इन्द्रजाहया मेधामभिप्रजांसि च अपोपसा नः परिकोशपरिषदेन्दुरहि जानः सोदृभिः जनजञ्जोदुर्बन्दना अवेव षद्गाः कृण्वानो न निर्णिजम्